इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका ऋचा झा आदौ मुख्य वार्ताः प्रधानमन्त्री नरेन्द्र मोदी युक्रेन देशस्य द्विदिवसीय यात्रायाः द्वितीये अन्तिमे च चरणे अद्य कीव नगरं प्राप्तवान् प्रधानमन्त्रिणा युक्रेन देशस्य राष्ट्रपतिना व्लोदिमीर जेलेंस्की इत्यनेन सह प्रतिनिधि स्तरीय सम्मेलनं कृतम् रक्षामन्त्री राजनाथ सिंहः अवोचत् यत् भारतामेरिका देशौ स्वाभाविकौ सहयोगिनौ स्तः अपि च द्वयोर्मध्ये सहभागित्वं सुनिश्चितमस्ति राष्ट्रेणाद्य स्वकीयः प्रथमान्तरिक्ष दिवसः आचर्यते विगतवर्षे अस्मिन्नेव दिवसे चन्द्रयान तृतीयाभियानेन चन्द्रमसः तले विक्रम लैंडर इत्यस्य सुरक्षितं सौम्यावतरणं च सम्पूरितम् अनया महदुपलब्धिना सह भारतम् अन्तरिक्षयात्रिणां देशानां विशिष्टसमूहे समाविष्टम् शिक्षामन्त्रालयेन सर्वेभ्यः राज्येभ्यः केन्द्रशासितप्रदेशेभ्यश्च एकविंशत्यधिकद्विसहस्रतमवर्षस्य विद्यालयीय सुरक्षा दिङ्निर्देशस्य अनुपालनाय निर्देशः प्रदत्तः अपि च अमेरिकादेशस्य उपराष्ट्रपतिपदासीना कमला हैरिस चतुर्विंशत्यधिकद्विसहस्रतमस्य वर्षस्य डेमोक्रेटिक पार्टी इति दलस्य राष्ट्रपतिपदस्य नामांकनम् औपचारिकरूपेण स्वीकृतवती अथ वार्ताः विस्तरेण अद्य युक्रेन देशस्य कीव नगरे प्रधानमन्त्रिणा नरेन्द्र मोदिना युक्रेन देशस्य राष्ट्रपतिना वोलोदिमीर जेलेंस्की इत्यनेन सह प्रतिनिधिस्तरीय सम्मेलनं कृतम् उभयोः नेत्रयोः उपस्थितौ चतुर्षु सहभागितान् ज्ञापनपत्रेषु हस्ताक्षराणि आदान प्रदानानि च जातानि युक्रेन देशे सामुदायिक विकास परियोजना मादक द्रव्य नियंत्रण मानक सांस्कृतिक इत्यादिषु विविध क्षेत्रेषु द्वैपाक्षिक संबंधान् सुदृढं कर्तुं ज्ञापनपत्रेषु हस्ताक्षराणि कृतानि प्रधानमन्त्री नरेन्द्र मोदी पोलैंड युक्रेन देशयोः द्विदिवसीय यात्रायाः द्वितीये अन्तिमे च चरणे अद्य कीव नगरं प्राप्तवान् प्रधानमन्त्री कीवनगरं रेलयानेन गतः कीवनगरं सम्प्राप्य प्रवासी भारतीयैः प्रधानमन्त्रिणः भव्यं स्वागतं व्याहृतम् अत्रावसरे प्रधानमन्त्री श्रीमोदी कीव इत्यत्र युक्रेनस्य राष्ट्रियेतिहास संग्रहालये बालेभ्यः निर्मितां मल्टीमीडिया मार्टियोलॉजिस्ट प्रदर्शनीम् अवलोकितवान् तेन सह युक्रेनस्य राष्ट्रपतिः वोलोदिमीर जेलेंस्की इत्येषः आसीत् उभौ नेतारौ बालानां स्मृतेः सम्मानं कृतवन्तौ संघर्षे दिवंगतानां बालानां स्मृतौ नियोजितायाः प्रदर्शन्याः प्रधानमन्त्री नरेन्द्र मोदी प्रभावितो जातः अपि च दुःखं प्रकटयन् तेषां स्मृतौ एकं क्रीडनकमपि तत्र स्थापितवान् इतः प्रधानमन्त्री नरेन्द्र मोदी कीव नगरे महात्मा गान्धिनः प्रतिमायां पुष्पाञ्जलिं समर्पितवान् तदनन्तरं समन्वययुतस्य समाजस्य निर्माणे महात्मा गान्धिनः शान्ति सन्देशस्य नित्य प्रासंगिकतामपि रेखांकितवान् रक्षामन्त्री राजनाथ सिंहः अवोचत् यत् भारतामेरिका देशौ स्वाभाविकौ सहयोगिनौ स्तः अपि च द्वयोर्मध्ये सहभागित्वं सुनिश्चितमस्ति अमेरिका देशस्य आधिकारिक यात्रायाः प्रथमे दिने श्री सिंहः वाशिंगटन नगरे भारतीय प्रवासिनः सम्बोधितवान् असौ अत्रावसरे हर्षमपि अनुभूतवान् यतोहि तत्रस्थाः भारतीय समुदायाः निज सांस्कृतिक मूल्यैः सह योजिताः सन्ति भारतीयार्थव्यवस्थायै विकासात्मक सम्भावनाः प्रकाशयन् श्री सिंहः न्यगादीत् यत् भारतदेशः सप्तविंशत्यधिकद्विसहस्रतमवर्षं यावत् तृतीया बृहत्तमार्थव्यवस्था भवेदिति रक्षानिर्यातप्रसंगे अपि मन्त्रिणा निगदितं यत् रक्षानिर्यातेन साम्प्रतं एकविंशतिसहस्रकोटिरूप्यकाणि अधिगतानि स्वीययात्रावधौ रक्षामन्त्रिणा राजनाथसिंहेन भारतामेरिकादेशयोः आपूर्तिव्यवस्थायाः सुरक्षापत्रेषु सम्पर्काधिकारिणां नियुक्तिसम्बन्धे अपि एकं सहभागित्वज्ञापनपत्रे हस्ताक्षरं कृतम् संस्कृतवार्तायाः संस्करणमिदं इदानीम् आकाशवाणीतः प्रसार्यते सममेव अयं कार्यक्रमः आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ न्यूज ऑन एआईआर चलदूरभाषीय तन्त्रांशे अपि समुपलब्धो भविष्यति। राष्ट्रेणाद्य स्वकीयः प्रथमान्तरिक्ष दिवसः आचर्यते। विगतवर्षे अस्मिन्नेव दिवसे चन्द्रयान तृतीयाभियानेन चन्द्रमसः तले विक्रम लैंडर इत्यस्य सुरक्षितं सौम्यावतरणं च सम्पूरितम्। अनया महदुपलब्धिना सह भारतम् अन्तरिक्षयात्रिणां देशानां विशिष्ट समूहे समाविष्टम्। अपि च चतुर्थः देशः जातः, सहैव चन्द्रमसः दक्षिण ध्रुवं निकषा अवतरितः प्रथमः देशो जातः। राष्ट्रपतिः, उपराष्ट्रपतिः, प्रधानमन्त्री च अत्रावसरे देशवासिभ्यः शुभकामनाः अयच्छन्। अस्य वर्षस्य अन्तरिक्षदिवसस्य विषयो विद्यते चन्द्रस्पर्शनेन जीवनस्पर्शनम्, भारतस्य अन्तरिक्षकथा इति। यः समाजे प्रौद्योगिक्यां च अन्तरिक्षान्वेषणस्य गहनप्रभावाय बलं प्रददाति। अद्य प्रातः नवदिल्ल्याः भारतमण्डपस्थाने अत्रावसे आयोजिते मुख्य समारोहे सम्बोधयन्ती राष्ट्रपतिः द्रौपदी मुर्मुः प्रोक्तवती यत् भारतीयान्तरिक्षानुसन्धानसंघटनेन न केवलम् अन्तरिक्षक्षेत्रे अपितु देशस्य सामाजिकार्थिकविकासे अपि सुदृढं योगदानं प्रदत्तम्। तदनु अन्तरिक्षराज्यमन्त्री डॉ जितेन्द्रसिंहः प्रोक्तवान् यत् नरेन्द्रमोदिनः प्रशासनेन अन्तरिक्षक्षेत्रस्य विमुक्तये भूतकालिकसीमानः विखण्डिताः। शिक्षामन्त्रालयेन सर्वेभ्यः राज्येभ्यः केन्द्रशासितप्रदेशेभ्यश्च 21-2000 विद्यालयीय सुरक्षादिङ्निर्देशस्य अनुपालनाय निर्देशः प्रदत्तः। अयं दिङ्निर्देशः मन्त्रालयस्य विद्यालयीय शिक्षा साक्षरता विभागद्वारा पोस्को इत्यस्य दिङ्निर्देशानुरूपं विकसितः। अमेरिकादेशस्य उपराष्ट्रपति पदासीना कमला हैरिस 24-2000 डेमोक्रेटिक पार्टी इति दलस्य राष्ट्रपतिपदस्य नामांकनम् औपचारिकरूपेण स्वीकृतवती। शिकागो नगरे चतुर्दिवसात्मकस्य डेमोक्रेटिक नेशनल कन्वेंशन इत्येतस्य अन्तिमे दिवसे ह्यः रात्रौ कमला हैरिस सभां सम्बोधितवती। प्रधानमन्त्री नरेन्द्र मोदी रविवासरे महाराष्ट्रस्य जलगांव नगरस्य यात्रां करिष्यति। प्रधानमन्त्री 11,00,000 लखपति दीदी इत्येताभ्यः प्रमाणपत्रं वितरिष्यति। पश्चिम बंगाले आरजीकर चिकित्सालये दुष्कर्म हत्या सम्बद्ध प्रकरणयोः एकमेव अवष्टब्धः जनः संजयः रॉयः अद्य कोलकातायाः सियालदाह न्यायालयेन 14 दिवसानां कृते कारागृहे सम्प्रेषितः। राष्ट्रिय मानवाधिकारायोगेन अनकापल्ली जनपदे एकस्मिन् नैजोद्योगिक एकांशे जाते विस्फोटे श्रमिकानां मृत्यु प्रकरणे आन्ध्रप्रदेशस्य मुख्य सचिवाय, आरक्षी महानिदेशकाय च सूचना प्रख्यापिता। केन्द्रेण राज्ये जलाप्लावस्य स्थितिं दृष्ट्वा त्रिपुराय 40,00,000,000 अनुमोदितानि। राज्यापत् प्रतिकार प्रतिक्रिया कोषात् अनुमोदितः राशिः प्रभावितजनेभ्यः सहाय्याय वर्तते। सामाजिक संचार पटले केन्द्रीय गृहमन्त्री अमित शाहः उक्तवान् यत् केन्द्रेण प्रेषितानि राष्ट्रियापत् प्रतिकार बलस्य 11 दलानि, स्थलसेनायाः 3 दलानि, वायुसेनायाः 4 उदग्रयानानि च प्रागेव सहयोद्धार कार्येषु संलग्नानि सन्ति। केन्द्रीय संस्कृत विश्वविद्यालय तिरुपति संस्कृत विश्वविद्यालय श्रीलाल बहादुर शास्त्री राष्ट्रिय संस्कृत विश्वविद्यालयानाम संयुक्त तत्वावधाने अस्य 24-2000 द्विदिवसात्मकस्य उत्कर्ष महोत्सव आयोजनम् श्रीलाल बहादुर शास्त्री राष्ट्रिय संस्कृत विश्वविद्यालयस्य नेतृत्वे नवदिल्लीस्थे अखिल भारतीय तकनीकी शिक्षा परिषदि जातम्। एतस्मिन् महोत्सवे केन्द्रीय वस्त्रमन्त्री गिरिराजसिंहः त्रयाणां संस्कृत विश्वविद्यालयानां कुलपतयः पद्मश्री सम्मानेन सम्मानितः चमुकृष्णशास्त्रीवर्यः, अन्ये च प्राध्यापकाः, शोधार्थिनः च इत्यादयः उपस्थिताः आसन् इति वार्ताः।